एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचक उपेन्द्र दहालः। सर्वकारेण सुरक्षण मुद्रण केन्द्रम् नैज क्षेत्रेण सह प्रतिस्पर्धाम् विधाय व्यवसायम् कर्तुम् योग्यानाम् सार्वजनिक निकायानाम् सूच्याम् समावेष्टुम् निर्णीतम् वर्तते। प्रधानमन्त्री मन्त्रिपरिषद कार्यालये पूर्वे द्यौ उपविष्टस्य मन्त्रिपरिषद उपवेशस्य निर्णयान् सार्वजनिक कुर्वाणः शिक्षा विज्ञान प्रविधि मन्त्री सर्वकारस्य प्रवक्ता च सस्मित पोखरेलः सुरक्षण मुद्रण केन्द्रस्य सार्वजनिक निकायानाम् सूच्यां समावेशनस्य सूचना नेपाल राजपत्रे प्रकाशयिष्यते इति अज्ञापयत्। प्रवक्ता पोखरेल सशस्त्र प्रहरी बल नेपालस्य सशस्त्र प्रहरी महानिरीक्षक पदे सशस्त्र प्रहरी अतिरिक्त महानिरीक्षकस्य नारायण दत्त पौडेलस्य पदोन्नतिम् विधातुम् निर्णीतमस्तीति असूचयत्। एवमेव मन्त्रिपरिषद उपवेशेन आर्थिक क्षेत्रे सुधारान्वयनस्य उद्देश्येन एतत् विक्रम वर्षीयायै सीमा प्रवेश शुल्क नियमावल्यै स्वीकृतिम् प्रदातुम् च निर्णीतमस्तीति शिक्षा मन्त्री पोखरेल अज्ञापयत्। पश्चात्तन समये चर्चायाम् विद्यमानस्य त्रिभुवन विश्वविद्यालयस्य क्रिकेट क्रीडा प्रांगणस्य रिक्तीकरणस्य अपसारणस्य च विषये संचारकर्मिणाम् जिज्ञासायाम् पूर्वे द्यु प्रवक्ता पोखरेल देव त्रिभुवन विश्वविद्यालयस्य कुलपतिना सहितै पदाधिकारीभिः विहितं विमर्शनम् अनुकूलम् आसीत्। क्रिकेट प्रांगणस्य त्रोटनस्य रिक्तीकरणस्य च सर्वकारस्य कापि योजना नास्ति इति च समस्पष्टयत्। मन्त्री पोखरेलः त्रिवि क्रिकेट क्रीडा प्रांगणस्य संविधायाः अवधि समाप्तोऽस्ति इत्यतः नूतन भाटकानुबन्धनम् कृत्वा संविधाये नैरन्तर्यम् प्रदास्यते इति अगदत्। एवमेव सर्वकारस्य शतदिवसीय कार्ययोजनायाः तत्र त्रिंशतो दिनानाम् कार्यमूल्यांकनस्य च विषये जिज्ञासायाम् मन्त्री पोखरेलः सर्वकारः नागरिकाणाम् पृष्ठपोषणस्य मूल्यांकनस्य च आधारेण आत्मानम् परिमार्जनम् कृत्वा अग्रे वर्धमानो वर्तते। शतदिवसानाम् कार्याणाम् लक्ष्यं प्रति वर्तमान सर्वकार दृढतया उन्मुखोस्तीति च अगदत्। सर्वकारेण नेपालस्य एतद् विक्रम वर्षीयं वर्तमान आर्थिक स्थितिपत्रं सार्वजनिकृतं वर्तते। पूर्वे द्यौ सार्वजनिकृतेन आर्थिक स्थितिपत्रेण देशस्य वर्तमानार्थिकावस्थायाः वस्तुनिष्ठ चित्रस्य प्रस्तुतीकरणेन सहैव आगामिन्याः नीतेः योजनायाः आयव्ययकस्य च निर्माणाय मार्गदर्शनम् करिष्यते इति उद्देश्यम् निर्धारितम् अस्ति। स्थितिपत्रेण नेपालस्य अर्थतन्त्रम् सम्प्रति नैकविधैः समाह्वयैः परिवृतम् अस्ति इति स्वीकृतम् सदपि रूपान्तरणाय वौहायामिकावसाराः प्रशस्त मात्रायाम् वर्तन्ते इति निष्कर्ष प्रकाशितोऽस्ति। आर्थिक स्थितिपत्रे स्थिर सर्वकारेण निवेशन मैत्री नीतिगतम् वातावरणम् निर्मितम् सद् नैज क्षेत्रस्य विश्वासः पुनस्थापितो भविष्यति तेन च स्वदेशीयम् वैदेशिकम् च निवेशनम् प्रवर्धिष्यते इति विश्वासः धृतोऽस्ति। आर्थिक स्थितिपत्रे देशे विपुल सम्भावनायाः रूपेण जलविद्युत क्षेत्रम् प्रस्तुतमस्ति। सर्वकारेण प्राकृतिक धार्मिक सांस्कृतिक हिमालयीय सम्पदः नेपालस्य अपरः सुदृढः आधारोऽस्तीति निश्चितम् वर्तते। सर्वोच्च न्यायालयेन पूर्व राष्ट्रपतिना पूर्वोपराष्ट्रपतिना पूर्व प्रधानमन्त्रिणा पूर्व सभामुखेन पूर्व प्रधान न्यायाधीशेन च सहितैः पदाधिकारीभिः विदेशेषु उपचाराय सर्वकारीयं वित्तं प्रयोक्तुं न शक्यते इति निर्णयः श्रावितोऽस्ति। कार्यवाहक प्रधान न्यायाधीशस्य सपना प्रधान मल्लस्य न्यायाधीशानाम् कुमार रेग्मिणः डाक्टर मनोज कुमार शर्मणः सारंगा सुवेदिनः अब्दुल अजिज मुसलमान इत्यस्य च संयुक्त सांविधानिक न्यायपीठेन इह एतत्पूर्वम् स्वविद्यस्य प्राप्तित्वेन विहितायाः व्यवस्थायाः निरस्तीकरणत्वेन निर्णयः श्रावितो वर्तते। सर्वोच्च न्यायालयस्य प्रवक्तुः अर्जुन प्रसाद कोइरालाभिधस्य अनुसारेण पूर्व पदाधिकारिणाम् विदेशेषु उपचाराय सर्वकारेण वित्तस्य व्ययीकरणेन सम्बद्धस्य नागरिक सहयोग क्षतिपूर्त्या आर्थिक सहयोगेन च सम्बद्धस्य त्रिसप्तत्यधिक द्विसहस्रतम विक्रम वर्षीयस्य द्वितीय संशोधन कार्यविधेः द्वादश प्रकरणस्य प्रथमधाराया व्यवस्था निरस्तीकृता अस्ति। नेपाली कांग्रेसले केन्द्रीय कार्य सम्पादन समितेः उपवेशेन विश्वराज आङदेम्बे इत्ययम् संसदीय दलस्य नेतृपदे सर्वसम्मत्या प्रचितो वर्तते। नेपाली कांग्रेस दलस्य सानेपा वर्तिनी केन्द्रीय कार्यालय ह्य उपविष्टेन उपवेशेन सभापते गगन कुमार थापा विदस्य प्रस्तावेन समानुपातिक निर्वाचन प्रणालीत निर्वाचितस्य सांसदस्य अङदेम्बे इत्यस्य संसदीय दलस्य नेतृपदे चयनाय सर्वसम्मत्या निर्णीतमस्तीति महामन्त्री गुरूराज घिमिरे असूचयत। अत्रान्तरे नेपाली कांग्रेस दलस्य सभापतिना गगन कुमार थापा विदेन दलस्य संसदीय दलेन राष्ट्रिय आवश्यकताया अनुसारेण सर्वैसह समन्वयं कृत्वा दलमग्रे नेष्यते इति उक्तं वर्तते। दलस्य सिंहप्रसादवर्तिनी संसदीय दल कार्यालये ह्य संचारकर्मी विशा भासमाना सभापति थापा केन्द्रीय समितौ विद्यमानानां अवर्तमानानां च सहमतौ विष्णुराज आङदेम्बे संसदीय दलस्य नेतृपदे निर्विरोधं निर्वाचितोऽस्तीति असूचयत। सहकारी संस्थासु स्थापितस्य वित्तस्य संचयकर्तृभ्य प्रत्यावर्तनाय सर्वकारेण चक्रीय कोषस्य माध्यमेन वित्त प्रत्यावर्तन सम्बद्ध कार्यविधि क्रियान्वितो वर्तते। नूतन कार्यविधेः अनुसारेण अतपरं संचयकर्तृभिः चरणबद्ध रूपेण स्वस्य वित्तं प्राप्स्यते इति भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्रालयेन ज्ञापितं वर्तते। कार्यविधेः अनुसारेण समस्याग्रस्त सहकारी संस्था व्यवस्थापन समितेः अन्तर्गतं विद्यमानत्वेन चक्रीय कोष संस्थापितो वर्तते। कोषस्य माध्यमेन समस्याग्रस्त सहकारी संस्थानां माध्यमेन संचयकर्तृणां वित्तं प्रत्यावर्तयिष्यते। भक्तपुर काष्ठमण्डपयोः सीमक्षेत्रस्य मनोहरा नद्याः तटीय क्षेत्रस्य भूम्यावासहीनानां जनानां वसतौ अनधिकृतरूपेण निर्मिताः संरचनाः त्रोटिताः अपसारिताश्च वर्तन्ते। मध्यपुर ठिमी नगरपालिकायाः प्रथमवडा क्षेत्रस्य लोकन्तली स्थानस्य काष्ठमण्डपस्य द्वात्रिंशवडा क्षेत्रस्य जडीबुटी स्थानस्य च मनोहरा नद्याः तटीय क्षेत्र निवसतां भूम्यावासहीनानां जनानां वसतेः दशाधिकाष्टशतं गृहकुटीराणां सतस्य गृहकुटीराणां भञ्जनस्य कार्यं ह्य दिवासम्पन्नमस्तीति भक्तपुर प्रहरी परिसरस्य प्रमुख प्रहरीपरीक्षकश्च सूर्यबहादुर खड्का असूचयत्। सर्वकारेण भूम्यावासहीनानां जनानां वसते प्रभावितानां विद्यार्थिनां अनुकूल विद्यालयेषु स्थानान्तरणं विधीयते। शिक्षा विज्ञान प्रविधि मन्त्रिणा सस्मित पोखरेलेन अनधिकृत वसतीनां स्थानान्तरणेन प्रभावितानां विद्यार्थिनां सुरक्षायाः सज्जीकरणस्य च विषये प्रदत्तानां शरणां निर्देशनानाम् अन्तर्गतं सानोठिमीवर्तिना शिक्षा मानव स्रोतो विकास केन्द्रेण परीक्षायाः व्यवस्थापनं समन्वयं च प्रभावकारिणौ विधातुं स्थानीयस्तराः अनुरुद्धाः वर्तन्ते। इति समाचाराः।